शून्यं प्रतीक्षते तव आविर्भावम्। त्वं यदि रक्षणं न करिष्यसि भक्तजनं कथं पुनः जागरिष्यसि।
प्रभो
Dahi।